मदनातुरचेतसोऽन्वहम् बबदङ्घ्रिद्वयदास्य काम्यया यमुना तटसीम् निशैकतीम् तरलाख्यो गिरिजाम् समार्चिचन् तव नाम कतारता समम् सुदृश प्रातरूपागता नदीम् उपहारशतैरपूजय दयितो रङ्गसुधो भवेदिति इति वाचमुपाहितौ व्रतास्तरलाक्षीरभिवीक्षता भवाम् करुणा मृदुलो नदीतटम् समयासीत्तदनुग्रहे च याम् नियमावसितौ निजाम्बरम् तदसीमन्यवमुच्यतस्तदा यमुना जलखेलनाकुला पुरतस्त्वामवलोक्य लज्जिताः कृपया नमिता ननास्वथो वनिता स्वम्बरजालमन्तिके निहितौ परिगृह्य भूरुः विटपौ त्वम् तरसाधिरूढवान् इह तावदुपेत्य नीयताम् वसनौ वसुदृशो यतायतौ इति नर्म मृदुस्मिते त्वयि ब्रुवति व्यामुमुखे बभूजनैः अयि जीवचिरौ किशोरनस्तव दासीरवशीकरोषि किम् प्रदिशाम्बरमम्बुजे क्षणेत्युदितः त्वम् स्मितमेव दत्तवान् अवधिरुह्य तटम् कृताञ्जलिः परिशुद्धा स्वगतिर्निरीक्षताः वसनान्यखिलान्यनुग्रहम् पुनरेवम् गिरमप्यदामुदा विदितम् ननुगोमनीषितम् पतितारस्त्विक योग्यमुत्तरम् यमुनः पुरिणे स चन्द्रिकाः क्षणदा इत्यबला त्वमूचिवान् उपकर्ण्य भवन्मुखच्युतम् मधुनिष्यन्ति वचो मृगीदृशः प्रणयादयि वीक्ष्य वीक्ष्यते वदनाब्जम् शनकै गृहम् गतः इति नन्मनुगृह्य वल्लवीर्विपिनान्तेषु पुरेव सञ्चरन् करुणा शिशिरो हरे हरत्परया मे सकलामयावलिम्।